Guru Vishnu, Guru Devo Maheshwara, Guru Sakshad Parabrahma, Tasmai Sri Gurave. Chaitanyam Shashvatam Shantam Bhumatitam Niranjanam Bindunada Kalatita Stashmai Sri Gurave Varadharam Vishnum Shashivaranam Chaturbhujam Prasanna Badanam Dhyaye Sarva Vighno Pashantai Om Vakratunda Mahakaya Surya Koti Samaprabha Nirvighnam Kurume Deva Sarva Karje Saraswati Mahabhagi Didi Kamalalochane Vidyarupe Vishalakshi Vidyang Dehi Namostute Yakundendu Tusharahara Dhabala Yashubhra Vastra Vrita Yabina Varadanda Mandita Kara Yashveta Padamasana Yabrahma Achyuta Sankara Pravitivi Devaishara Vandita Shaman Pato Saraswati Bhagavati Nishesha Jatyapa Vyashang Vasishtha Naptarang Sakte Poutramakalamasam Parasharadamayang Bande Sukatatang Taponidhim Vyashaya Vishnurupaya Vyasarupaya Vishname Namo Vai Brahma Vidhaye Vasishthaya Namo Nama Achatur Vadano Brahma Divahura Paro Hari Abhalalo Chanashambhu Bhagavan Badarayani Atha Srimad Bhagavad Gita Tatra Dhyanam Unapartha Pratibhudhitam भगवता नारायणे स्वयं व्यासेन ग्रथितं पुराण मुनिना मध्ये महाभारते अद्वैतामृतवर्षिणी भगवती अष्टादशाध्यायिनी मम त्वामनुसं दधामि भगवान् गीते भवद्देशिनी नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दाय तपात्रनेत्र येन त्वया भारत तैलपूर्णा प्रज्वालितो ज्ञानमयः प्रदीप प्रपन्ना पारिजाताय स्तोत्रवेत्रैकपाणये ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः सर्वोपनिषदो गावो दुग्धागोपालनन्दना पार्थो वत्स सुधीर्भोक्ता दुग्धं गीतामृतं महात् वसुदेवसुतं देवं कंसचाणोरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरु भीष्माद्रोणतटा जयद्रथजला गन्धारनीलोत्पला शल्यग्राहवती कृपेण वहनी कर्णेन बेलाकुला अश्वत्थामा विकर्णघोरमकरा दुर्योधना बलतिनी सोत्तीर्णा खलु पाण्डवैरणनदी केशव पाळाशर्यवच शरूयममलं गीतार्थगन्धोत्कटं नानाख्यनकेशरं हरिकथा सङ्गबोधनाबोधितम् लोके सज्जन शतपदैरहरः पेपीयमानमुदा भूयाल्भारत पङ्कजं कलिमल प्रध्वंसिनः श्रेयसे मूकं करोति वाचालं पङ्गो लङ्घयते गिरीं यत् कृपा त्वमहं वन्दे परमानन्दमाधवं यं ब्रह्मा वरुणेन्द्ररुद्रमरुताः स्तुन्नन्ति दिव्यैस्तवै वेदै साङ्गपदक्रमोपनिषदै गायन्ति यं श्यामला ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं नाविदो सुरासुरगणा देवाय तस्मै Oh नमस्कृत्या नरञ्चैव नरोत्तमं देवीं सरस्वतीं चैव ततो जयमुदीरये। अथ प्रथमो अध्याय धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता जुजुत्सवा मामकः पाण्डवाश्चैव किमकुर्वत संजय। संजय उवाच दृष्ट्वा तु पाण्डवानीकं गूढं दुर्योधनस्तदा आचार्य उपसङ्गम्य राजा वचनमब्रवीत् पश्यैतान् पाण्डुपुत्राणा माचार्य महतीं चमून् गूढां द्रुपदपुत्रेण तव शिष्येणाधीमत अत्र शूरा महेश्वासा भीमार्जुनसमायुधि जुजुधानु विराटश्च द्रुपदश्च महारथ धृष्टकेतुश्चेकितार काशीराजश्च वीर्यवान् पुरुजित् कुन्तिभूयश्च शैव्यश्च नरपुङ्गवः युधामन्नुश्च विक्रान्त उत्तमौजाश्च वीर्यवान् सौभद्रो द्रौपदेयाश्च सर्वे एव महारथा अस्माकं तु विशिष्टाये तन्निबोधादिजोत्तमा नायका मम सैन्यस्य सङ्गार्थं तान् ब्रवीमिथे भवान् भीष्माश्च कर्णश्च कृपश्च समितिञ्जय अश्वत्थामाभिकर्णश्च सौमदत्तिस्तथैव च अन्ये च बहवः शूरा मदर्ते तक्तजीविता नानाशस्त्रप्रहरणा सर्वे युद्धविशारदा अपर्याप्तं तदस्माकं बलं भीष्वाभिरक्षितं पर्याप्तं तिदमेतेषां बलं भीमाभिरक्षितम् अयनेषु च सर्वेषु जटाभागमवस्थिता भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि तस्य संजनयन हर्षन् कुरु वृद्ध पितामह सिंहनादं विदोदोच्चैः शङ्खं दद्धौ प्रतापवान् ततः शङ्खाश्च भीर्याश्च पनवानकगोमुखा सहसैवाव्य हन्यन्त सशब्दस्तु मुलोऽभवत् ततः सेतैर्हयैर्युक्ते महती स्वन्दने स्थितौ माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदधतु पञ्चजन्यं हृषीकेशो देवदत्त्यं धनञ्जय पौण्ड्रं दद्धौ महाशङ्खं भीमकर्मा भृगुदर अनन्ताविजयं राजा कुन्तिपुत्रो युधिष्ठिरा नकुलः देवश्च सुघोषामणिपुष्पकौ काश्यश्च परमेश्वास शिखण्डी च महारथ धृष्टद्युम्नो विराटश्च सात्तकीश्चापराजितः द्रुपदो द्रौपदेयाश्च सर्वसपृथिवीपते सौभद्रश्च महाबाहो शङ्खं दद्ध पृथक् पृथक् सघोषो धार्तराष्ट्राणां हृदयानि बदारयत् navascha prithivincheiva tumulubbanunadayan atha babasthitan drishtva dhartarastan kapidhaja pravitte shastra sampate dhanurudyamya pandava hrishikesan tadavyakya midamaha mahipate arjuna yuvacha senayorubhayor madhye rathang sthapayame chuta javade tan nirikshiham yodhuka manavasthitan kuyamaya sahajodhyabhya mashmine rana samuddame jyotsamanana vikshiham yayete trasamagata dhartarashtra sadurbuddhir yuddhe priya chikirishava sanjaya uvacham eva mukto hrishikesho gurakeshena bharata senayor bhayor madhye sthapayitta rathottamam bhishmadruna pramukhata sarve sancha mahikshitam uvacha partha pashvaitan samavetan kuru niti tatra pashyat sthitana partha pitrinata pitamahan acharyan matulana bhatrin putran pautran sakhin stathan shashuran shudhidashchaiva senayoruhayorapi tan samiksha shakunteya sarvan bandhu navasthitan kripaya paraya vishtu vishidan nidama bravit arjuna yuvacha drishtiman swajanan krishna jujutsun samavasthitan shidanti mama gatrani mukhancha parishushati bipathuscha sharireme romaharshascha jayate gandivam sansate hastar twakchaiva paridajjate nacha shaknyomyavasthatum bhramati vachame mana nimittani cha pashyami viparitani keshava na cha shreyo nupashyami hatva svajana mahave na kanshe vijayam krishna na cha rajyam sukhani cha kino rajyena govinda king bhogair jivite nava je samarthe kanshitam no rajyam bhoga sukhani cha taime vasthita yuddhe pranam stvaktva dhanani cha archaja pitara putra stathaiva cha pitamaha matula sasura pautra shyala sambandhina stata etanna hantum icchami gratopi madhusudanam api trailokya rajyasya hetu kingnu mahi krite nihatta dhartarashtranna kapritishya janardanam papameva asraye dasman tattvaita natotaina tasmannara bayam hantum dhartarashtran swabandhavan svajanam hi katam hatva sukhina shyama madhava yadapyete na pashyanti lobhopahata chetasa kulakshaya kritam dosam mitradrohe cha patakam katam na giyam asmabhi papadasaman nivartitum kulakshaya kritam dosam prapashyadi vir janardanam kulakshaye parashanti कुलधर्म सनातन धर्मे नष्टे कुलं कृष्ण मधर्मोऽभिभवत्तुत अधर्माभिभवत् कृष्ण प्रदुष्यन्ति कुलस्त्रिय स्त्रीषु दुष्टाशु वाश्नेय यायते वर्णशंकर शंकरो नरकायैव कुलक नानं कुलस्य च पतन्ति पितरोच्छेषं लुप्तपिण्डोदकक्रिया दोषैरेतैः कुलक नानं वर्णशंकरकारकै उत्सद्यन्ते जातिधर्मा कुलधर्माश्च शाश्वत उत्सन्ना कुलधर्माणां मनुष्याणां जनार्दनां नरके नियतं वासो भवति तनुशुश्रुमम् अहो मत महात्पापं कर्तुं बवशिता वयं यदराज्य सुखलोभेन हन्तुं स्वजनमुद्गत यदि मामप्रतीकार मशस्त्रं शस्त्रपानय धार्तराष्ट्रा रणे हन्नु स्तन्मे क्षेमतरङ्ग भवेत् संजय उवाच एव मुक्तार्जुनः शङ्खे रथोपस्थाय उपाविशत् विसिज्य शशरं चापं शूकसं विघ्नमानसः ॐ तत्सत् इति श्रीमहाभारते शतसाहस्र्यं संहितायं वैयासिक्यं विश्वपर्वणि श्रीमद्भगवद्गीतासूपनिषदसु ब्रह्मविद्यायं योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषाय योगो नाम प्रथमोऽध्यायः।